यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति। अयि अध्ययनशीलाः नित्यं शास्त्रावगाहने लीनाः संस्कृतकार्यक्रमेभ्यः दत्तावधानाः विद्वांसः श्रोतारः संस्कृतजगतः प्रसिद्धे एतस्मिन् साप्ताहिकी कार्यक्रमे अहं ऋचा झा भवतां समेषां सादरं सश्रद्धं च स्वागतं करोमि। प्रियाः श्रोतारः जानन्ति एव भवन्तः यत् साप्ताहिकी कार्यक्रमस्य प्रत्येकस्मिन् अङ्के ज्ञानवर्धनाय प्रस्तूयते सुभाषितमेकम्। न केवलं ग्रन्थाधारितस्य ज्ञानस्य वर्धनाय अपि तु अनुभववर्धनाय अत्यन्तम् उपयोगी भवति एतत् सुभाषितम्। आगच्छन्तु तर्हि शृण्मः अस्य कार्यक्रमस्य प्राणभूतम् अद्यतनं सुभाषितं यच्च प्रस्तौति अस्माकं सहयोगिनी साधना शर्मा।
उष्ट्राणां विवाहेषु गीतं गायन्ति गर्दभाः परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः। ऊँटों के विवाह में गधे गीत गा रहे हैं। गधा ऊँट से कहता है वाह क्या रूप है और ऊँट गधे से कहता है वाह क्या आवाज है। तात्पर्य झूठी प्रशंसाओं में न बहकर सच को स्वीकार कर सही मार्ग चुनना चाहिए।
अयि श्रोतृवृन्दाः सम्प्रति अग्रेसरामः प्रसङ्ग प्रभागं प्रति यत्र अद्य कार्तिकेय पञ्चकम् इत्येतस्य केषाञ्चन श्लोकानां भावपूर्णं स्तवनं विदधाति अस्मदीयः सहयोगी पुनीत त्रिपाठी।
विमलनिजपदाब्जं वेदवेदान्तवेद्यं मम कुलगुरुनाथम् वाद्यगान प्रमोदम् रमण सुगुण जालम् रंगराड भागिनेयम् कमल जनुत पादम् कार्तिकेयम् नमामि शिव सरवण जातम् शैव योग प्रभावम् भवहित गुरुनाथम् भक्तवृन्द प्रमोदम् नवरस मृदु पादम् नाथरिङ्कार रूपम् कवन मधुर सारम् कार्तिकेयं भजामि। पाकारातिसुता मुखाब्जमधुपम् बालेन्दुमौलीश्वरम् लोकानुग्रहकारणं शिवसुतं लोके सत्तत्वप्रदम् राका चंद्र समान चारु वदनम् रंभोरुवल्लीश्वरम् रिंकार प्रणव स्वरूप लहरी श्री कार्तिकेयं भजे श्री कार्तिकेयं भजे।
सुन्दरम्। सम्मान्याः श्रोतारः साप्ताहिकी वार्ता प्रभागे संसारे यथा कर्म एव फलम् यत्किमपि आप्यते सांसारिक हि तत् तदेव संक्षिप्य अत्र प्रदर्श्यते। साम्प्रतम् साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति मुदिता वेतालः।
नवम्बर् मासस्य पञ्चविंशे दिने प्रधानमन्त्री नरेन्द्र मोदी अयोध्यायाम् राम मन्दिरे धर्म ध्वजारोहणम् कृतवान्। अत्रावसरे उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः राष्ट्रिय स्वयं सेवक संघस्य प्रमुखः मोहन भागवतः उत्तर प्रदेशस्य राज्यपालः आनंदीबेन पटेलः अन्ये च गणमान्याः उपस्थिताः आसन्। नवम्बर षड्विंश्याम् देशे संविधान दिवसः आमानितः। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः नवदिल्लीस्थे संविधान सदनस्य केन्द्रीय कक्षे संविधानस्य प्रस्तावनां पठितवती। संयुक्तराष्ट्रेण आगामि महासचिवस्य चयनाय औपचारिक प्रक्रिया आरब्धा। अवधेयं यत् संयुक्तराष्ट्र महासचिवस्य भावी कार्यकालः 27-2000 वर्षे जनवरी मासे प्रारप्स्यते। भारत दक्षिण अफ्रीका दलयोः क्रिकेट निकष श्रृंखला दक्षिण अफ्रीका दलेन विजिता। धन्यवादः।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरं पुनः उपस्थिताहम् ज्ञान विज्ञान प्रभागान्तर्गतम् एकं साक्षात्कारमादाय। अस्माभिः साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिन्या निधि झा इत्यनया सह लोकसभायां कन्नड भाषायाः युगपत् भाषान्तरणकर्ता सुदर्शन वर्यः।
अभिवादये मित्राणि, अस्माकं समक्षम् अद्य उपतिष्ठते श्रीमान् सुदर्शनः। भारतीय भाषासु कार्यं कुर्वाणः अयं जनः सम्प्रति लोकसभायां युगपत् भाषान्तरणकर्ता वर्तते। तत्र संस्कृतं विशेषतः कन्नड हिन्दी इत्येतासु भाषासु तस्य कार्यं संसदि प्रचलति। महोदयाः, अहं निधिझाः, हृत्पूर्वकं स्वागतं व्याचष्टे।
धन्यवादः।
अस्मिन्नेव क्रमे प्रथमः तावत् प्रश्नः, लोकसभायां 22 भाषासु भाषान्तर प्रक्रिया प्रचलति, किमियं प्रयोजनकारिणी उत धनहानिः एव?
सत्यमुक्तं, संसदि सम्प्रति 22 भाषासु तत्रापि भारतीय भाषासु अष्टमानुसूच्यां याः भाषाः वर्तन्ते तासु भाषासु भाषान्तरणप्रक्रिया प्रचलति। जानीमः एव वयम् इयं लोकसभा प्रजाप्रभुत्वस्य मन्दिरमिति। अत्र सर्वेपि नेतारः तेषां पक्षमत्र आगत्य स्थापयन्ति, अतः तैः यत्किमपि उच्यते तत्सर्वं तत्र विद्यमानेभ्यः सर्वेभ्यः तस्य अवगमनं स्यात्। अतः एव इयं काचित् विशिष्टा प्रक्रिया आरब्धा वर्तते, भाषान्तरणप्रक्रिया इति। अनया भाषान्तरणप्रक्रियया, उदाहरणार्थं यदि तत्र कश्चन कर्णाटकदेशीयः वर्तते, सः हिन्दीं न जानाति, तदा यदा कश्चित् नेता हिन्द्यां वदति, अत्र अस्माकं भाषान्तरणकर्ता यः वर्तते सपद्येव तस्मिन्नेव काले युगपत् तेन उक्तं सर्वम् एषः कन्नडभाषायाम् अथवा प्रादेशिकभाषायाम् अनूद्य तस्मिन्नेव क्षणे श्रावयति। अतः आदौ तावत् एषा काचित् विशिष्टा प्रक्रिया वर्तते। पुनः भवद्भिः एतदपि पृष्टं, प्रयोजनकारिणी अथवा धनहानिः इति। सत्यं, तथा भासेत, आदौ धनहानिः इति भासेत, परन्तु इयं प्रयोजनकारिणी एव वर्तते। यतोहि यावत् भाषा इत्युक्ते एका संवहनक्रिया वर्तते, भाषायाः माध्यमेन एव वयम् अन्यैः यद् उक्तं वर्तते तत्सर्वं ज्ञातुं प्रभवामः। यदि प्रतिपक्षेण उक्तम् अथवा विरोधपक्षेण उक्तं यत्किञ्चिद् वयं ज्ञातुं न प्रभवामः, तर्हि तस्य समीचीनं सुदृढम् उत्तरं कथं वा दातुं शक्नुयाम? अतः आदौ मया अवगन्तव्यं तेन किमुक्तम् इति। अतः इयं भाषान्तरणप्रक्रिया सर्वदा प्रयोजनकारिणी एव वर्तते इति मम मतम्।
बहु समीचीनं महाभागः। पूर्वम् अस्माभिः अवलोकितं यत् केचन सांसदः संस्कृतविरोधं कृतवन्तः, तर्हि अन्य सांसद्भिः का प्रतिक्रिया प्रदत्ता?
सत्यम्, इदानीं लोकसभा इत्युक्ते तत्र सर्वदापि कलहः भवत्येव। यतोहि कश्चन विचारः उपस्थापितः चेत् तत्र तस्य विषयस्य पक्षे केचन भवन्ति, प्रतिपक्षे अन्ये केचन, विरोधपक्षे बहवः भवन्त्येव, अतः अत्र सर्वदा कोलाहलः वर्तते एव। परन्तु यदा भाषायाः विषये अत्र विवादः समुत्पन्नः, भवन्तः जानन्ति एव कश्चन नेता किमर्थं संस्कृते भाषान्तरणप्रक्रिया अपेक्षते, यतोहि कः शृणोति संस्कृते, संस्कृते भाषान्तरणप्रक्रियायाः का वा अत्र उपयोगिता इति संसदि कश्चन नेता प्रश्नं कृतवान्। तदा अस्माकं लोकसभायाः सम्माननीयाः अध्यक्षाः तैः एकं सम्यक् उत्तरं दत्त्वा तैः एतत् प्रतिपादितं, भारते या कापि भाषा वा भवतु सा भारतीयभाषा वर्तते, तत्रापि संस्कृतं सर्वासामपि भाषाणां जननी वर्तते। अतः यदि संस्कृति एव भाषान्तरण प्रक्रिया न भवति तर्हि अन्यासु भाषासु कथं वा भवितुं शक्यते एवम् इत्यादि समीचीनम् उत्तरं प्रदाय तैः संस्कृतस्य महत्वम् अत्र उपस्थापितम्। अतः बहवः अत्र नेतारः संस्कृतस्य पक्षे एव वर्तन्ते। यदा निर्वाचनानन्तरं वयं तेषां प्रतिज्ञा स्वीकारसमये वयं पश्यामः बहवः नेतारः संस्कृते एव तेषां प्रतिज्ञावाचनं कुर्वन्ति। एवं प्रकारेण लोकसभायां संस्कृतस्य कृते इदानीमपि महत्वं वर्तते, अग्रेपि महत्वं भवति इत्यत्र संशयः एव नास्ति।
धन्यवादाः। अस्मिन्नेव चरणे अन्तिमोऽयं प्रश्नः, भारतीय भाषायां भाषान्तरण प्रक्रियायां कथं संस्कृतं सहायकं सिद्धं भवति, पुनश्च भाषान्तरणं कारं भवदीयः अनुभवः कः वर्तते?
पूर्वमपि मया उक्तमेव, सर्वासां भाषाणां जननी संस्कृतमिति। विदन्तेव विपश्चितः यत् संस्कृतभाषा अतीप्राचीनतमा परम्परा च। इयं हि भाषा प्रतियुगं नवनवमात्मानं प्रस्फुरति, समाविष्करोति च। अत्र वयं जानीमः वेदाः शास्त्राणि इति विस्तृतं वाङ्मयं वर्तते। अतः सर्वासां भाषाणां जननी संस्कृतम् इति तु निश्चप्रचम्। इदानीं यदि कश्चन कन्नडभाषायाम् अथवा हिन्दीभाषायां भाषान्तरणं कुर्वन् वर्तते तदा कश्चित् नूतनः आङ्ग्लशब्दः तत्र आगतः, तदा अस्माभिः तस्य समानार्थकः कश्चन शब्दः भारतीयभाषायाम् अस्माभिः वक्तव्यं भवति। यदि पूर्वमेव तस्य शब्दस्य निर्वाचनं कृत्वा यदि नूतनः शब्दः निर्मितः वर्तते तर्हि तस्य प्रयोगं कर्तुं शक्यः। यदि तत्र समानार्थकः अन्यः शब्दः नास्ति तर्हि तत्र संस्कृतमेव शरणम्। यतोहि नूतनशब्दनिर्माणं संस्कृतमूलकमेव सम्भवति। तत्र संस्कृते वयं जानीमः एव धातुप्रक्रिया वर्तते, उपसर्गप्रक्रिया वर्तते। इदानीं पर अप सम इत्यादि उपसर्गाणां योजनेन कश्चन विनूतनः अर्थः तत्र निष्पन्नः भवति। तद्वदेव संसदि अपि पारिभाषिकाः बहवः शब्दाः वर्तन्ते। तत्र केचन शब्दाः आङ्ग्लभाषायाम् एव वर्तन्ते, अतः तेषां शब्दानां समानार्थकरूपेण यदि अहं नूतनं शब्दं यदि नूतनस्य शब्दस्य प्रयोगम् अहं कर्तुम् इच्छामि तर्हि तत्र संस्कृतस्यैव साहाय्यम् अस्माभिः स्वीकर्तव्यं भवति। पुनः अपरमेकं, प्रायः सर्वासु अपि भाषासु संस्कृतस्य शब्दाः अत्यधिकाः वर्तन्ते। इदानीं कन्नडभाषा भवतु, तमिळ् भाषा भवतु, तेलुगुभाषा भवतु अथवा गुजरातीभाषा भवतु, हिन्दीभाषा भवतु, सर्वत्रापि संस्कृतस्य शब्दाः वर्तन्ते एव। वयम् अत्र पश्यामः यः संस्कृतं जानाति सः अनायासेन कन्नडभाषायां कर्तुं शक्नोति, यदि किञ्चित् तेलुगु जानाति तेलुगुभाषायामपि कर्तुं शक्नोति, पुनश्च हिन्दीभाषायां तु सुललितरूपेण सः भाषान्तरणप्रक्रियां कर्तुं सम्भवति। अतः अनेन ज्ञायते संस्कृतम् अस्याः प्रक्रियायाः मूलाधारः वर्तते। अतः यदि वयं संस्कृतं जानीमः तर्हि अस्माकं कार्यं प्रायः 90% सुसम्पन्नम् इत्येव।
सुन्दरं महोदयः, भवन्तः स्वकीयम् अमूल्यमपि नैजं समयं कल्पितवन्तः, एतदर्थं धन्यता वचांसि आविष्क्रियते मया।
धन्यवादाः। जियात् गिर्वाण भारती।
मन्येऽहं यत् अनेन संवादेन भवन्तः सर्वे निश्चप्रचमेव लाभान्विताः भविष्यन्ति। अयि रसिकाः श्रोतारः आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी रिंकू जोशी।
देशे अस्मिन् प्रतिष्ठितैः त्रिभिः केन्द्रीय संस्कृत विश्वविद्यालयैः, दिल्ली स्थिते श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये, दक्षिणाम्नाय श्री शारदापीठस्य पीठाधीश्वरस्य अनन्त श्री विभूषित जगद्गुरु शंकराचार्य श्री विधुशेखर भारतीत्यस्य अध्यक्षतायां गुरु नमस्या नाम्ना संस्कृत सम्मेलनस्य भव्यं समायोजनं सम्पन्नम्। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयेन संस्कृत शिक्षा बोर्ड इत्यस्य संयुक्त सभायां शैक्षणिक समय तालिका निर्माणस्य छात्र संख्या संवर्धनस्य समन्वये च विशिष्टं बलं प्रदत्तम्। कवि कालिदास संस्कृत विश्वविद्यालयेन राष्ट्रिय पुस्तक प्रदर्शन्यां सहभागिता प्रदत्ता। कवि कालिदास संस्कृत विश्वविद्यालयः, कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयः च उभयोः विश्वविद्यालयोः संविधान उद्देशिकायाः वाचनम् अभवत्। मणिपुरस्य राधा माधव आदर्श संस्कृत महाविद्यालये ज्योतिर्विज्ञान विषये फैकल्टी डेवलपमेंट इत्याख्यस्य कार्यक्रमस्य आयोजनं भवति। राष्ट्रीय संस्कृत विश्वविद्यालयस्य तिरुपति एवं केन्द्रीय संस्कृत विश्वविद्यालयस्य श्री रघुनाथ कीर्ति परिसरे अपि संविधानस्य प्रस्तावनायाः प्रतिज्ञा गृहीता। केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे हमारा संविधान हमारा अभिमान इत्यस्मिन् विषये स्वतंत्र परिचर्चायाः आयोजनम् अभवत्।
ऐ संस्कृत समाराधिकाः, अद्य बालवल्लरी प्रभागे सुषमा कुमारी प्रस्तौति प्रहेलिकाः।
बालाः, अद्य वयं बाल मनोवल्लर्यां प्रहेलिकायाः पाठं करिष्यामः। योजानाति सः पण्डितः। प्रथमा प्रहेलिका अस्ति, भोजनान्ते च किं पेयम्, जयन्तः कस्य वयसुतः, कथं विष्णुपदं प्रोक्तम्, तक्रं शक्रस्य दुर्लभम्, भोजनस्य अन्ते किं पानीयम्। उत्तरमस्ति, तक्रं पानीयम्, जयन्तः कस्य सुतः, जयन्तः शक्रस्य सुतः, विष्णोः सानिध्यं कथम् उक्तम्, विष्णोः सानिध्यं दुर्लभम् उक्तम्। द्वितीया प्रहेलिका अस्ति, न तस्यादिर्न तस्यान्तो मध्ये यस्तस्य तिष्ठति, तवाप्यस्ति ममाप्यस्ति, यदि जानासि तद्वद। विवरणमत्र अस्ति, तस्य आदिः नास्ति, तस्य अन्तः अपि न अस्ति, तस्य मध्ये यः तिष्ठति तत् तव अपि अस्ति मम अपि अस्ति, यदि जानासि तद्वद। उत्तरमस्ति, नयनम्। तृतीया प्रहेलिका, वृक्षस्याग्रे फलं दृष्टं, फलाग्रे वृक्ष एव च, अकारादिं सकारान्तं, यो जानाति सः पण्डितः। अत्र विवरणम्, वृक्षस्य अग्रे फलं दृष्टं, फलस्य अग्रे वृक्षः एव च, अकारस्य यस्य आदिः तथैव सकारः यस्य अन्ते अस्ति, तत्पदं यः जानाति सः पण्डितः। अकारः आदि, सकारः अन्ते, उत्तरं जानासि वा? उत्तरमस्ति, अनानास फलम्।
प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागानन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र अस्माकं सहयोगी ललितमोहन तिवारी श्रावयति संस्कृत हिन्दी पंजाबी भाषासु कानिचन वाक्यानि।
प्रथमं वाक्यम् अस्ति, धर्मेन्द्रः भारतीय चलचित्र क्षेत्रस्य लोकप्रिय अभिनेता अस्ति। धर्मेन्द्र भारतीय फिल्म उद्योग के मशहूर और लोकप्रिय अभिनेता है। पंजाबी भाषा में, धर्मेंद्र भारतीय फिल्म उद्योग दे बहुत ही मशहूर ते लोकप्रिय अभिनेता है। द्वितीय वाक्यम अस्ति, सह ही मैन इति नामना अभी प्रसिद्ध अस्ति, उन्हें ही मैन के नाम से भी जाना जाता है। पंजाबी भाषा में, उनानु ही मैन दे नामनाल जाना जाता है। तृतीय वाक्यम अस्ति, धर्मेंद्रेण बहुषु चलचित्रेषु उत्तमम् अभिनयं कृत्वा जनानां हृदयानि जितानि। धर्मेंद्र ने अनेक सफल फिल्मों में अभिनय करके दर्शकों का दिल जीता है। पंजाबी भाषा में, धर्मेंद्र ने अनेक सफल फिल्मा च अभिनय किया है ते दर्शकों का दिल जीता है। चतुर्थम वाक्यम अस्ति, चलचित्र क्षेत्रेण सह राजनीतौ अपि सक्रिय आसीत, फिल्मों के साथ साथ वे राजनीति में भी सक्रिय रहे। पंजाबी भाषा में, फिल्मा ने नाल नाल ओ राजनीति विच भी सक्रिय रहे हन।
अयि श्रोतृजनाः, अधुना तु कालः समायातः प्रस्थानवेलायः। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवमेकमङ्कमादाय पुनः उपस्थास्यामहे। तावत्पर्यन्तं भवन्तः कार्यक्रममालक्ष्य स्वकीयान् विचारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् अन्तर्जालीय सम्पर्कसूत्रमस्ति nsdsanskrit@gmail.com इति। भवेत् तावत् मङ्गलम्।
Thank you.